इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः परीक्षा पे चर्चा इत्येतस्य संवाद कार्यक्रमस्य नवमे संस्करणे देशस्य छात्रैः सह संवादं करिष्यति। कार्यक्रमस्य प्रसारणं प्रातः दशवादनात् विभिन्नेषु मञ्चेषु भविष्यति। 26,000 संस्करणमिदं छात्रान् परीक्षाकाले चिन्तामुक्तं, शिक्षणे प्रबलं ध्यानं प्रवर्धयितुं च केन्द्रितं भविष्यति। परीक्षा पे चर्चा कार्यक्रमे प्रायः 5.4 कोट्यधिकाः छात्राः, शिक्षकाः च अभिभावकैः सह माई GOV पोर्टल माध्यमेन पंजीकरणं कृतवन्तः। अस्मिन् संस्करणे दिल्लीनगरं विहाय तमिलनाडुराज्यस्य कोयम्बतूरनगरं, छत्तीसगढ़स्य रायपुरनगरं, गुजरातस्य देवमोगरानगरं, असमराज्यस्य गुवाहाटीनगरं च अन्तर्भवति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः यूट्यूब वाहिन्यां, दूरदर्शने, शिक्षामन्त्रालयस्य सामाजिकपटलेषु च अस्य प्रसारणं भविष्यति। कार्यक्रमः प्रायः सर्वेषु OTT इति मञ्चेषु अपि प्रत्यक्ष प्रसारितः भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना दृढविश्वासः प्रकटितः यत् वैश्विकस्तरे स्पर्धां कर्तुं भारतं पूर्णतया सज्जमस्ति। आत्मविश्वासेन निर्णायक नीतिपरिष्कारैः च सह तृतीयं बृहत्तमं अर्थव्यवस्था भवितुं प्रावर्तते। सः अवदत् यत् सर्वकारः रिफॉर्म, परफॉर्म एंड ट्रांसफॉर्म इति दृष्ट्या अग्रे गच्छन् अस्ति, तथा च देशः रिफॉर्म एक्सप्रेस इत्यस्मिन् अपि सम्मिलितः। सः ह्यः राज्यसभायां राष्ट्रपतेः अभिभाषणस्य धन्यवाद प्रस्तावस्य चर्चायाः उत्तरम् अददात्।
हमने रिफॉर्म, परफॉर्म, ट्रांसफॉर्म के मंत्र को लेकर के आगे बढ़े और आज स्थिति ऐसी है कि देश रिफॉर्म एक्सप्रेस पर सवार हो चुका है। हमने स्ट्रक्चरल रिफॉर्म्स किए हैं, प्रोसेस से जुड़े रिफॉर्म्स किए हैं, पॉलिसीज में रिफॉर्म किए हैं। हमारा मैन्युफैक्चरिंग सेक्टर, हमारी उद्यमी ये सशक्त हो, भारत की हर चीज का वैल्यू एडिशन हो, उस दिशा में हमने प्रयास किया है। और मैं आज विश्वास के साथ कह सकता हूं, आज भारत विश्व के साथ स्पर्धा करने के लिए पूरी तरह तैयार है।
प्रधानमन्त्रिणः भाषणानन्तरं राज्यसभायां राष्ट्रपतेः अभिभाषणस्य धन्यवादप्रस्तावः ध्वनिमतेन स्वीकृतः। केन्द्रीयगृहमन्त्री अमितशाहः जम्मूनगरे सीमासुरक्षायाः समीक्षां करिष्यति। सुरक्षास्थितिविषये उच्चस्तरीय उपवेशनमपि आयोजयिष्यति। श्रीशाहवर्यः गतरात्रौ जम्मूकश्मीरस्य द्विदिवसीय यात्रायां जम्मूनगरं सम्प्राप्तवान्। जम्मू विमानस्थानके उपराज्यपालेन मनोज सिन्हावर्येण गृहमन्त्रिणः स्वागतं कृतम्। यात्रावधौ श्रीशाहः सुरक्षा विभागैः, प्रशासनिक अधिकारिभिः च सह मिलित्वा समग्रस्य विधि व्यवस्थायाः स्थितेः मूल्यांकनं करिष्यति, तथा च वर्तमानस्य विकास उपक्रमाणां प्रगतेः मूल्यांकनं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी फरवरी मासस्य 7-8 दिनांकयोः मलेशियायाः प्रधानमन्त्रिणः अनवर इब्राहिम इत्यस्य निमन्त्रणे कुआलालम्पुरं गमिष्यति। विदेशमन्त्रालयस्य सचिवः पी कुमारन आगामियात्रायाः विषये वार्तालापं कुर्वन् अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः मलेशियादेशस्य एषा तृतीया यात्रा भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी मलेशिया देशस्य प्रधानमन्त्रिणा सह द्वैपाक्षिकीं चर्चां करिष्यति, तथा च भारत मलेशिया समग्र सामरिक सहभागित्वस्य अन्तर्गतं व्यापारः, रक्षा सुरक्षा, सेमीकंडक्टर्स, डिजिटल प्रौद्योगिकी, अक्षय ऊर्जा चेत्यादिषु प्राधान्यक्षेत्रेषु प्रगतेः समीक्षां करिष्यति। अद्य अपराह्णे जिम्बाब्वे देशस्य हरारे नगरे अण्डर-19 एकदिवसीय क्रिकेट विश्व चषक क्रीडायाः निर्णायक क्रीडायां भारतं इंग्लैण्ड देशेन सह स्पर्धिष्यति। भारतीय समयानुसारं अपराह्णे 1 वादने एषा स्पर्धा आरभ्यते। इति वार्ताः।